इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। भारत फ्रांसयोः आर्थिक औद्योगिक सहकारं प्रगाढं कर्तुं प्रयत्नस्य भागरूपेण प्रधानमन्त्रिणा नरेन्द्रमोदिना पेरिस नगरे प्रमुखैः फ्रांस देशीयैः वाणिज्य नेतृभिः सह अनेकानि उच्चस्तरीय मेलनानि विहितानि। प्रधानमन्त्री पेरिस नगरे मिस्ट्रल एआई संस्थायाः सह संस्थापकेन मुख्य कार्यकारी अधिकारिण्या सह आर्थर मेंच इत्यनेन सह अपि मिलितवान्। सामाजिक प्रसार माध्यमे प्रधानमन्त्रिणा भारतस्य वर्धमान एआई इति पारिस्थितिक व्यवस्थायाः अवसराणां विषये अपि अवधानं प्रदत्तम्। प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां प्रधानमन्त्री विकसित भारत रोजगार योजना इत्यस्यान्तर्गतं 2400 कोटि रूप्यकाणां प्रोत्साहकाणां वितरणं करिष्यति। नवदिल्ल्यां योजनायाः विषये प्रसारमाध्यमान् सम्बोधयन् श्रम रोजगार मन्त्री डॉ मनसुख मांडवीयः अवोचत् यत् गतवर्षस्य अगस्त मासात् आरभ्य 63 लक्षतोऽधिकाः कर्मचारिणः पीएमवीवीआरवाई इत्यस्यान्तर्गतम् औपचारिक कार्यक्षेत्रे आनीताः सन्ति, येषु प्रायः 30% महिलाः सन्ति। सः इतोपि अवोचत् यत् अस्याः योजनायाः अन्तर्गतं प्रोत्साहिताः 80% अधिकाः संस्थाः, 25% न्यूनाः लघुद्यमाः सन्ति इति। फ्रांस देशस्य राष्ट्रपतिः इमानुएल मैक्रोन ह्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः कृते हिन्दी भाषायाम् एकं भावपूर्णं सौप्रस्थानिक चलच्चित्रं प्रसारितवान्, यत्र सः प्रधानमन्त्रिणं प्रियं मित्रम् इति सम्बोधयन् अवदत् फ्रांसः भवन्तं स्निह्यति। मैक्रोनः हिन्द्याम् अवोचत् यत् प्रियमित्र नरेन्द्र, मुझे बहुत खुशी है आपका नाइस एवियन और पेरिस दौरे के लिए स्वागत करते। फ्रांस भारत की दोस्ती अमर रहे। फ्रांस राष्ट्रपति प्रधानमन्त्रिणः मोदिनः एतं प्रवासं अतीव फलदायकम् इति उद्घोषयत्। प्रवासार्थं च कार्तज्ञभावं ज्ञापितवान्। आगामी फरवरी मासे पुनः मेलनस्य आकांक्षां प्रकटयन् सः अवोचत् यत् प्रवासाय अस्माकं मैत्रीभावाय च धन्यवादः, वयं शीघ्रमेव फरवरी मासे पुनः मेलनाय प्रतीक्षामहे। जय हिन्द। केन्द्रीय कृषि एवं कृषक कल्याण मंत्री शिवराज सिंह चौहान आभासीय माध्यमेन चतुर्णां राज्यानां कृते एमएसपी इति न्यूनतम समर्थन मूल्येन बृहत् परिमाणे तिलहन क्रयणस्य स्वीकृतिम् अयच्छत्। कृषि मन्त्रालयानुगुणम् एषः क्रयण संकल्पः तमिलनाडु, गुजरात, उत्तर प्रदेश, हरियाणा इत्येतेषु राज्येषु मूल्य समर्थन योजनान्तर्गतं प्रचलति। अस्मिन् ग्रीष्मकालीन ऋतौ उत्तरप्रदेशः सर्वबृहत् लाभार्थी राज्यत्वेन उदितः, यस्य कृते 98,200,48,000 मेट्रिक टन मितं मुद्गम, 97,000,790,000 मेट्रिक टन मितं माष, अथ च 18,700,44,000 मेट्रिक टन मितं कलाय क्रयणस्य अनुमतिः दत्ता। नवीन एवं नवीकरणीय ऊर्जा मन्त्रालयस्य सचिवः संतोष कुमार सारंगी न्यगादीत् यत् दृढ नीतिगत संरचनया अभिनव सर्वकारीय प्रयासैः भारतम् अद्य जगति नवीकरणीय ऊर्जा क्षेत्रे प्रमुख देशत्वेन समुदेति। नवदिल्ल्याम् आयोजिते हरित एवं सतत विकास सन्धिः इत्याख्ये 10वें संवाद सत्रे नवीकरणीय ऊर्जा, ऊर्जा सुरक्षा इति विषये भाषमाणः श्री सारंगी गत दशके भारतस्य अभूतपूर्व प्रगतेः उल्लेखं कृतवान्। तेन प्रतिपादितं यत् एषः विकासः मुख्यतया नवीकरणीय क्रयण अनिवार्यता, प्रतिस्पर्धात्मक निविदा दिशानिर्देशाः सहैव स्वचालित मार्गेण 100% वैदेशिक प्रत्यक्ष निवेशं करोति इति वार्ताः।